सदा किं सम्पर्कात् प्रकृति कठिनैर्ना किमुकुटैः तटैर्निहारात्रे रतिकमनुना योगिमनसा बिभिन्ते सम्मोहं शिशिरयति भक्तानपि दृशाम् अदृश्यं कामाक्षीं प्रकटयति ते पादयुकलं पवित्राभ्यामम्ब प्रकृतिमृतुलाभ्यां तव शिवीं पदाभ्यां कामाक्षीं प्रसभमभिभूतैः सशकितैः प्रवालैरम्बोजैर् अपि च वनवासव्रतदशाः सदैवारभ्यन्ते परिशरितदानाद्विजगणैः शिरादृश्याहंसैः कथमपि सताहंससुलभं निरस्यन्ति जाट्यं नियतजटमद्यैकशरणम् अदोषव्यासङ्कां सततमपि दोषाब्धिमलिनं भजोऽयं कामाक्ष्याः परिहसति पादाब्जयुकलीम्।